वरद गणेश कवचम श्री गणेशाय नमः। श्री भैरव उवाच महादेवी गणेशस्य वरदस्य महात्मनः कवचम ते प्रवक्ष्यामि वज्रपञ्जरकाभिदम् अस्य श्री महागणपति वज्रपञ्जर कवचस्य श्री भैरव ऋषिः गायत्री छन्दाः श्री महागणपतिर्देवता गम्बीजम् रीं शक्तिः कुरु कुरु कीलकम् वज्र विद्यादि सिद्ध्यर्थे महागणपति वज्र पंजर कवच पाठे विनियोगः। ध्यानम् विघ्नेशं विश्ववंद्यं सुविपुल यशसं लोकरक्षा प्रदाक्षं साक्षात् सर्वापदासु प्रशमन सुमतिं पार्वती प्राणसूनुं प्रायः सर्वासुरेन्द्रैः ससुरमुनिगणैः साधकैः पूज्यमानं कारुण्येनान्तरायमितभय शमनं विघ्नराजं नमामि। ॐ श्रीं ह्रीं गं शिरः पातु महागणपतिः प्रभो विनायको ललाटं मे विघ्नराजो प्रभो मम। पातु नेत्री कणाध्यक्षो नाशिकां मे गजाननाः श्रुतिमेवतु हेरम्बो गण्डौ मोदकाशनाः। द्वै मातुरो मुखं पातु चाधरौ पात्वरिन्दमम् दन्तान् ममैकदन्तो व्यात् वक्रतुण्डो वतादृशाम् गाङ्गेयो मे गलं पातु स्कन्दौ सिंहासनोऽवतु विघ्नान्तकौ भुजौ पातु हस्तौ मूषकवाहनाः। उरुः ममावतान् नित्यं देवस्त्रिपुरघातनाः हृदयं मे कुमारो व्यञ्जनयतः पार्श्वयुग्मकम् प्रद्युम्नो मेवता पृष्टम् नाभिं शङ्करनन्दनाः। कटिं नन्दिगणः पातु शिष्णं वीरेश्वरोऽवतु मेढ्रे मेवतु सौभाग्यो भृङ्गेरीटि च गुह्यकम् विराटकोपतादूरु जानो मे पुष्पदन्तकम् जङ्घे मम विकर्तोव्यात् गुल्फावन्ति गणोऽवतु पादौ चित्तगणः पातु पादाधौ लोहितोऽवतु पादपृष्ठं सुन्दरो व्यात् नूपुरोढ्यो वपुर्मम विचारो जठरं पातु भूतानि चोग्ररूपकः। शिरसः पादपर्यन्तं वपुः सुप्तगणोऽवतु पादादिमूर्धपर्यन्तं वपुः पातु विनर्तकः। विस्मारितं तु यतस्थानं गणेशस्तत्सदावतु पूर्वे मां रीं करालो व्यात् आग्रे ये विकरालकः। दक्षिणे पातु सङ्घारो नेरुतेरुरुभैरवाः पश्चिमे मां महाकालो वायौ कालाग्निभैरवः। उत्तरे मां सिताशो व्यात् ऐशान्यामसितात्मकाः प्रभाते शतपत्रो व्यात् सहस्रारस्तु मध्यमे दन्तमालादिनान्ते व्यान् निशिपात्रं सदावतु कलशो मां निशीथे व्यान् निशान्ते परशुस्तथा। सर्वत्र सर्वदा पातु शङ्खयुग्मं च माद्वपुः। ॐ ॐ राजकुले हौं रणभय रीं रीं कुज्युदेवतात् श्रीं श्रीं शत्रुगृहे सशौं जलभय क्लीं क्लीं वनान्तीवतु ग्लौं ग्लौं ग्लैं ग्लं गों सत्त्वभीतिषु महाव्याध्यार्तिषु ग्लौं गं गौं नित्यं यक्षपिशाच भूतफणिषु ग्लौं गं गणेशोऽवतु। इतीदं कवचं गुह्यं सर्वतन्त्रेषु गोपितं वज्रपञ्जरनामानं गणेशस्य महात्मनाः अङ्गभूतं मनोमयं सर्वाचारैकसाधनं विना नेन न सिद्धिः स्यात् भोजनस्य जपस्य च तस्मात्तु कवचं पुण्यं पठित्वा धारयेत् सदा तस्य सिद्धिर्महादेवी करस्तापारलौकिकी यं यं कामयति कामं तं तं प्राप्नोति पाठतः अर्धरात्रि पठेन्नित्यं सर्वाभीष्टफलं लभेत् इति गुह्यं सुकवचं महागणपतिः प्रियं सर्वसिद्धिमयं दिव्यं गोपयेत परमेश्वरी इति श्रीरुद्रयामले तन्त्रे श्रीदेवी रहस्ये महागणपतिकवचं सम्पूर्णम्।